इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः जतिन शर्मा। आदौ मुख्य वार्ताः। वर्णानां पर्व होलिकोत्सवः अद्य अशेषे हि देशे अतीव हर्षप्रकर्षेण समाचर्यते। अत्रावसरे राष्ट्रपतिना उपराष्ट्रपतिना प्रधानमन्त्रिणा च सर्वेभ्यः देशवासिभ्यः स्वकीयाः शुभकामनाः प्रकटीकृताः। युक्रेन देशे जायमाने संघर्षे निरन्तरम् अवधानाय रूसदेशस्य राष्ट्रपतिना व्लादिमीर पुतिनेन प्रधानमन्त्रिणं नरेन्द्रमोदिनम् अमेरिकी राष्ट्रपतिं डोनाल्ड ट्रम्प इत्येतं समेत्य विश्वस्य नेतृभ्यश्च स्वीया कृतज्ञता प्रकटिता। केन्द्रीय विज्ञान प्रौद्योगिकी राज्यमंत्री जितेन्द्र सिंह अद्य प्रोक्तवान् यत् पूर्वोत्तर भारतं विकसित भारतस्य स्वप्नं पूरयितुं मुख्य प्रेरक शक्तिः वर्तते। केन्द्रीय वित्तमंत्री निर्मला सीतारामन इत्येषा आर्थिक सर्वेक्षण पुस्तिकायां मूलरूप्यकस्य प्रतीक परिवर्तनार्थं डीएमके सर्वकारस्य आलोचनां विहितवती। अपि च भारतेन 25-अधिक-2000तमवर्षस्य विश्व पैरा एथलेटिक्स ग्रैंड प्रिक इत्यस्मिन् 34-शतपदकैः सह पदतालिकायां शीर्षस्थानम् उररीकृतम्। अथ वार्ताः विशदीकृत्य। वर्णानां पर्व होलिकोत्सवः अद्य अशेषे हि देशे अतीव हर्षप्रकर्षेण समाचर्यते। जनाः परस्पर वर्ण लेपनेन संगीतोल्लासेन एतं पर्व आभारते परिपालयन्तः सन्ति। उत्सवोयम् अधर्मस्योपरि धर्मस्य जयः इत्याधारीकृत्य आमन्यते। सहैव अयमुत्सवः वसन्तागमनमपि संसूचयति। होलिकेति पर्व समता सौहार्द भावनायाश्च सन्देशमपि प्रसारयति। अस्मिन् पर्वणि जनाः जाति वर्ण सम्प्रदायादिकं विस्मृत्य महदुत्साहेन एकीभूय अस्याचरणं कुर्वन्ति। अत्रावसरे राष्ट्रपतिना उपराष्ट्रपतिना प्रधानमन्त्रिणा च विश्वस्य सर्वानपि जनानालक्ष्य स्वकीयाः शुभकामनाः प्रकटीकृताः। राष्ट्रपति पदासीना द्रौपदी मुर्मुः सामाजिकान्तर्जालिक सन्देशे अवसरेऽस्मिन् नागरिकान् एकतायै सन्दिष्टवती। भाजपाध्यक्षः केन्द्रीयमन्त्री जेपी नड्डा इत्येषः अद्य नवदिल्ल्यां स्वीयावासे होलिकोत्सवं समाचरितवान्। अवसरेऽस्मिन् दलकार्यकर्तृभिः अन्यजनैश्च तेन सह अयमुत्सवः समाचरितः। दिल्ली भाजपा प्रमुखः वीरेन्द्र सचदेवा इत्येषोऽपि अत्रावसरे उपस्थितः आसीत्। दिल्लीप्रदेशस्य मुख्यमन्त्री रेखागुप्तापि समेभ्यः देशवासिभ्यः अस्य पर्वणः शुभकामनां प्रकल्पितवती। स्वीये सन्देशे तया प्रोक्तं यत् अयमुत्सवः न केवलं वर्णानामेव अपितु सुदृढसम्बन्धानां सौहार्दभावनानां चापि प्रतीकमस्ति। उत्तरप्रदेशे व्रजमण्डलादारभ्य अयोध्याक्षेत्रपर्यन्तं होलिकोल्लासः समग्रेऽपि प्रदेशे दृष्टिपथम् अवतरति। मुख्यमंत्री योगी आदित्यनाथः अद्य गोरखपुरे भगवतः नृसिंहस्य विश्वयात्रां हरितध्वजप्रदर्शनपुरस्सरं प्राचालयत्। मुख्यमन्त्रिणा जनेभ्यः शुभकामना प्रयच्छता प्रोक्तं होलिकोत्सवः एकतां स्मारयति इति। युक्रेनदेशे जायमाने संघर्षे निरन्तरम् अवधानाय रूसदेशस्य राष्ट्रपतिना व्लादिमीर पुतिनेन प्रधानमन्त्रिणं नरेन्द्रमोदिनम् अमेरिकी राष्ट्रपतिं डोनाल्ड ट्रम्प इत्येतं समेत्य विश्वस्य नेतृभ्यश्च स्वीया कृतज्ञता प्रकटीकृता। गतसायं बेलारूस राष्ट्रपतिना अलेक्जेंडर लुकाशेंको इत्यनेन सह संयुक्त वार्ताहर सम्मेलने श्रीपुतिनेन युद्धग्रस्तक्षेत्रेषु शान्तिं संस्थापनाय प्रधानमन्त्रिणं मोदिनं समेत्य ब्राजील दक्षिण अफ्रीका देशयोः राष्ट्रपतिभ्यां विश्वस्य नेतृभ्यश्च आभारभारं प्रकटीकृतम्। गतमासे व्हाइट हाउस इत्यत्र राष्ट्रपतिना ट्रम्पेन सह उपवेशने श्रीमोदी रूस युक्रेनयोः संघर्षे भारतं तटस्थं नास्ति इति विज्ञापितवान्, तथैव भारतं शान्तिमिच्छति इत्यपि बोधितवान्।
दुनिया का एक स्रोत ही है कि भारत न्यूट्रल है। भारत न्यूट्रल नहीं है, भारत का अपना पक्ष है और भारत का पक्ष है शांति। हम पहले दिन से ही और मैंने राष्ट्रपति पुतिन को उनकी मौजूदगी में मीडिया के सामने कहा था कि ये समय युद्ध का नहीं है और मेरा एक कन्विक्शन है कि समस्याओं का समाधान युद्ध के मैदानों में नहीं निकलता है, वो टेबल पर चर्चा करके ही निकलता है।
पूर्वम् अमेरिका देशेन त्रिंशत् दिवसात्मकः दिवसानां युद्धविरामः प्रस्तावितः। राष्ट्रपतिना पुतिनेन युद्धविरामस्य समर्थनं कुर्वता स्वीकृतं यत् अस्मिन् विषये अवधानम् आवश्यकम् इति। प्रस्तावः कथं कार्यान्वितः भविष्यति इत्यस्मिन् विषये तस्य गंभीराः प्रश्नाः सन्ति इत्यपि सः अवदत्। संस्कृतवार्तायाः संस्करणमिदं इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ newsonair चलदूरभाषीयतन्त्रांशे अपि समुपलब्धो भविष्यति। केन्द्रीय विज्ञान प्रौद्योगिकी राज्यमन्त्री जितेन्द्र सिंहः अद्य प्रोक्तवान् यत् पूर्वोत्तर भारतं विकसित भारतस्य स्वप्नं पूरयितुं मुख्य प्रेरक शक्तिः वर्तते। सहैव तेन प्रख्यापितं यत् स्थलमिदं देशे केसरस्य मुख्य केन्द्रत्वेन स्वीयां भूमिकाम् आविष्करोति। शिलांगस्थले नेक्टर इत्यस्य नूतन स्थायी परिसरस्य आधारशिलां संस्थापयन् डॉ सिंहः प्रोदीरितवान् यत् एकविंशत्यधिक द्विसहस्र वर्षादारभ्य सर्वकारस्य केसराभियानेन सिक्किम अरुणाचल प्रदेश मेघालयादिषु केसर कृषेः विस्तारो विहितः। केन्द्रीय वित्तमन्त्री निर्मला सीतारामन् इत्येषा आर्थिक सर्वेक्षण पुस्तिकायां मूलरूप्यकस्य प्रतीक परिवर्तनार्थं डीएमके सर्वकारस्य आलोचनां विहितवती। वित्तमन्त्रिणा डीएमके सर्वकारः प्रतीकस्य अनादरार्थम् आक्षिप्तः। तया समुदीरितं यत् अस्य चित्रणं यूपीए सर्वकारस्य कार्यकाले स्वीकृतम् आसीत्। पूर्व मुख्यमंत्री विपक्षीनेता ई पलानीसामी इत्येषोऽपि डीएमके सर्वकारम् अनुचित राजनीत्यै आरोपितवान्। अत्रांतरे तमिलनाडुराज्ये विधानसभायाः अर्थसंकल्पना सत्रमपि समारब्धम्। राज्यसर्वकारस्य तमिलनाडुराज्य विपणन निगमे कथित भ्रष्टाचारमालक्ष्य चर्चायै विपक्षनेत्रा ई पलानीसामी इत्यनेन अनुरोधो विहितः। परञ्च अध्यक्षेण एम अप्पावु इत्यनेन अनुरोधः निराकृतः यतः परं विधानसभायां कोलाहलः संजातः। अमेरिकी राष्ट्रपतिः डोनाल्ड ट्रम्प इत्येषः उक्तवान् यत् अमेरिकादेशः डेनमार्क देशस्थ ग्रीनलैंड क्षेत्रस्योपरि आधिपत्यं स्थापयिष्यति। सः गद्दिने व्हाइट हाउस इत्यत्र नाटो महासचिवेन मार्क रूट इत्यनेन सह उपवेशनक्रमे एतत् प्रोक्तवान्। राष्ट्रपतिः ट्रम्प इत्येषः अवदत् यत् नाटो संघस्य प्रमुखः अधिग्रहणे प्रमुखां भूमिकां निभालयिष्यति। तस्मिन्नेव काले नाटो महासचिवः रूट इत्येषः अवदत् यत् राष्ट्रपत्युः ट्रम्पस्य ग्रीनलैंड क्षेत्रं प्राप्तुं प्रयत्नानां विषये यत्किमपि चर्चा भवति तत्तस्य अधिकार क्षेत्राद् बहिः अस्ति। सः नाटो संघम् अस्मिन् प्रकरणे सम्मेलितुं नेच्छति। भारतेन उक्तं यत् पाकिस्तानस्य आरोपाः निराधाराः सन्ति। पाकिस्तानस्य टिप्पण्याः विषये नवदिल्ल्यां वार्ताहराणां प्रश्नानां प्रतिक्रियारूपेण विदेशमन्त्रालयस्य प्रवक्ता रणधीरजयसवालः अवदत् यत् पाकिस्तानस्य निराधारारोपाः भारतं दृढतया अस्वीकरोति। भारतेन दिल्ल्यां 25,000+ विश्व पैरा एथलेटिक्स ग्रैंड प्रिक इत्यस्मिन् उल्लेखनीयाभियानस्य समापनं कृतम्। अस्मिन् 45 स्वर्णपदकानि 40 रजतपदकानि 49 कांस्यपदकानि च समेत्य 34,100 सह भारतं पदकतालिकायां शीर्षस्थानम् अभजत्। बर्मिंघम इत्यत्र ऑल इंग्लैंड ओपन सुपर 1000 इत्यस्यां प्रतिस्पर्धायां भारतस्य लक्ष्यसेनः प्रागुपान्त्यचक्रीय प्रतिस्पर्धायां चीनस्य ली शी फेंग इत्यनेन पराजितम्। तत्रैव ट्रीसा जॉली गायत्री गोपीचन्दयोः महिलायुगलम् अद्य सायं प्रागुपान्त्यचक्रीय प्रतिस्पर्धायां चीनस्य महिलायुगलं सम्मुखीकरिष्यति इति वार्ताः।